सर्वेभ्यो नमः, स्वागतम्। अद्य वयम् अद्यापि वयं धातुगणानां विषये पठामः, किञ्चित् पुनस्मरणं कृत्वा वयम् अग्रे गच्छामः। अस्तु अस्तु, प्रथमतया भ्वादिगणस्य सर्वाणि गणानि वयम् एकवारं पुनस्मरणं कृत्वा अग्रे गच्छामः। अस्तु अस्तु, उपाधिगणस्य रूपाणि वदन्तु। सूचति गोपाल् महते, भवान् वदतु।
भवति, भवतः, भवन्ति, भवसि, भवतः, भवथ, भवामि, भवावः, भवामः।
समीचीनं महोदय। प्रिया भगिनी, भवती शोचति इत्यस्य वदतु।
भगिनी सम्यक् न श्रूयते भगिनी।
इदानीं भगिनी
नौ इट्स् बेटर्।
प्रिया भगिनी, भवती शोचति इत्यस्य वदति वा।
हा भगिनि, शोचति, शुचितः, शुचन्ति, भगिनि।
आं भगिनि,
शोचसि, शुचित, शुचितः, 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 शोचामि, शोचावः, शोचामः।
समीचीनं भगिनि। अस्तु, गर्जति इति राधा भगिनि।
गर्जति, गर्जतः, गर्जन्ति, गर्जसि, गर्जतः, गर्जत, गर्जामि, गर्जावः, गर्जामः।
समीचीनं। अस्तु, ये धते, गोपाल् महोदय। आं, किञ्चित् मन्दमस्ति। रूपाणि भवन्ति ये धते, ये धेते, ये धन्ते, ये धसे, ये देथे, ये धत्वे, ये दे, ये धावहे, ये धामहे। अस्तु, इदानीं स्पर्धते, प्रिया भगिनी भवती वदतु।
स्पर्धते, स्पर्धेते, स्पर्धन्ते, स्पर्धसे, स्पर्धेथे, स्पर्धद्वे, स्पर्धे, स्पर्धावहे, स्पर्धामहे।
समीचीनम्। अस्तु, राधा भगिनी, गाधते।
घाधते, घादेथे, घाधन्ते, घादसे, घादेथे, घादध्वे, घादे, घादावहे, घादामहे।
समीचीनम्। अस्तु, अनन्तरम् अदादिगणः अत्ति इत्यस्य गोपाल् महोदय, भवान् वदतु।
पटस्तु उत्तमपुरुषः भगिनी, कान्फर्ट्
अस्ति, अत्तः, अदन्ति
भगिनी। गोपाल् महोदय, वाय्स् इस् वेरि वेरि वीक्, फीबल्।
आं महोदय, गोपाल् महोदय, युवर् वाय्स् इस् वेरि वीक्, वी कान्ट् हियर् इट् that much.
Atti, attaha, adanti, atti, attaha, atta, and then uttama purushaha is
admi, advaha, admaha.
Admi, admi, adma,
advaha,
adma.
So, Priya Bhagini, bhavati, asti ityasya karotu.
Asti, saha, santi, asi, सहस्त, अस्मि, स्वः, स्मः।
समीचीनम्। अस्तु राधा भगिनी हन्ति इति करोतु।
हन्ति हतः हृणन्ति, हंसि हतः हत, हन्मि हन्वः हन्मः।
समीचीनम्। अस्तु गोपाल् महोदय आस्ते।
आस्ते आसाते आसते, आस्ये आसाथे आध्वे, आसे आस्वहे आस्महे।
समीचीनम्। अस्तु इदानीं प्रिया भगिनी श्येते।
एते शया I don't remember bhagini.
Shete shayate sherate she she shayate shethve shaye shevahe shemahe.
Shete shayate sherate she she shethe छेद्वे
न न न शेषे शयाथे
शयाथे छेद्वे भगिनि
आं भगिनि
छेद्वे शये शयावहे शयामहे
शये शेवहे शेमहे
ओ शये शेवहे शेमहे
अस्तु रोदिति राधा भगिनी।
रोदिति रुदितः रुदन्ति, रोदिषि रुदितः रुदित, रोदामि रोदावः रोदाम, रोदिमि रोदिमिः रुदिमः रुदिवः रुदिमः।
समीचीनम्। अस्तु स्वपीति गोपाल् महोदय।
स्वपीति स्वपितः स्वपन्ति, स्वपिषि स्वपितः स्वपिथ, स्वपिमि स्वपिवः स्वपिमः।
समीचीनम्। आं समीचीनं महोदय। अनन्तरं प्रिया भगिनी अनीति।
अनीति अनितः अनन्ति, अनीति अनितः अनितः नो ऐडिया वुडन् से भगिनी अनिमि अनिवः अनिवः अनिमः
अनिति अनितः अनन्ति, अनिषि अनितः अनित, अनिमि अनिवः अनिमः इति भवति।
ओके सो अनिषि ऐ सर् अनिषि ओके
अनिषि इति अतः भवति। अस्तु जुहोत्यादिगणः ददाति राधा भगिनि।
ददाति दत्तः ददति, ददासि दत्तः ददथ, दधामि दद्वः दद्मः।
समीचीनम्। अस्तु गोपाल् महोदय जहाति।
जहाति जहितः जहति, जहासि जहितः जहितः, जहामि जहिवः जहिमः।
समीचीनम्। बिभेति प्रिया भगिनी।
बिभेति बिभेति बिभित्तः बिभन् वदाश्यान् बिभ्यति, बिभेषि बिभित्तः बिभित्तः, bibemi bibivaha bibimaha
samichin astu divadikanah divyati राधा भगिनी भवती वदतु
कः वदामि भगिनि
बीभ्यति
बीभ्यते बीभ्यते इस् इट् द सेम् एस् बिभेति दीव्यति ओके divyati is divyeti divitah divyanti diveshi divitah divita dive mi divivah divimaha
samichinam astu Gopal Mohdaya sakhyati
Which one, Bhagini?
Sakhyati.
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 Sakhyati. Sakhyati. Sahitaha. Sahanti. दिवादिगणः या विकरणप्रत्यय अस्ति अण्ड् इट् इस् लैक् भुवादिगणः ओन्लि
पुनः वदतु महोदय
या विकरणप्रत्यय अस्ति बट् इट् इस् लैक् दिस् वन् ओन्लि भुवादिगणः ओन्लि सह्यसि सह्यतः सह्यथा सह्यामि सह्यावः सह्यामः
समीचीनम् अस्तु क्षिप्यति प्रिया भगिनी
क्षिप्यति क्षिप्यतः क्षिप्यन्ति क्षिप्यसि क्षिप्यथः क्षिप्यथ क्षिप्यामि क्षिप्यावः क्षिप्यामः
समीचीनम् राधा भगिनी नृत्यति
नृत्यति नृत्यतः नृत्यन्ति नृत्यसि नृत्यतः नृत्यत नृत्यामि नृत्यावः नृत्यामः
समीचीनम् अस्तु इदानीं गोपाल् महोदय दीयते
दीयते दीयेते दीयन्ते दीयसे दीयेथे दीयद्वे दीये दीयावहे दीयामहे
समीचीनम् अस्तु अनन्तरं मीयते प्रिया भगिनी
मीयते मीयेते मीयन्ते मीयसे मीयेथे मीयध्वे मीये मीयावहे मीयामहे
समीचीनम् अस्तु लीयते राधा भगिनी
लीयते लीयेते लीयन्ते लीयसे लीयते लीयद्वे लीये लीयावहे लीयामहे
समीचीनम् ईयते गोपाल् महोदय
ईयते ईयेते ईयन्ते ईयसे ईयेथे ईयद्वे ईये ईयावहे ईयामहे
समीचीनम् क्रियते प्रिया भगिनी
what is the word again bagini
priyate
priyate
apriyate
priyate okay priyate priyate priyante priyase priyethe priyadve priye priyavahe priyamahe
samichini लीयते राधा भगिनी
लीयते 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 लीयन्ते लीयसे लीयते लीयध्वे लिये लियावहे लियामहे
समीचीनम् अस्तु स्वादिगणः शृणोति इति गोपाल् महोदय भवान् रूपं वक्तुं शक्नोति वा
शृणोति शृणुतः शृण्वन्ति शृणोषि शृणुतः शृणुथ शृणोमि शृणुवः शृणुमः
समीचीनम् शृणोति प्रिया भगिनी
शृणोति भगिनि
तिनोति
तिनोति तिनोति तिनुतः तिन्वन्ति तिनोषि तिनुतः तिनुथ तिनोमि तिनुवः तिनुमः
समीचीनम् अस्तु वृणोति राधा भगिनी
वृणोति वृणोति वृणुतः वृण्वन्ति वृणोषि वृणुतः वृणुत वृणोमि वृणुवः अवृण्वः वृणुमः अवृण्मः
समीचीनम् अस्तु हिनोति गोपाल् महोदय गोपाल् महोदय हिनोति
धुनोति वा
हिनोति
शृणोति
हिनोति हिनोति
मिनोति टुत्रो हिनोति टुग्रो हिनोति हिनुतः हिन्वन्ति हिनोषि हिनुतः हिनुथ हिनोमि हिन्वः हिन्मः
समीचीनम् आप्नोति प्रिया भगिनी
आप्नोति आप्नोति आप्नुतः भगिनी आप्नुतः आप्नन्ति आप्नोषि आप्नुतः आप्नुथ आप्नोमि आप्नुवः आप्नुमः
That is Aapnuvanti, third person. Aapnuvanti va, Aapnoti, Aapnutaha, Aapnuvanti.
Okay.
I'm asking beginning.
Aapnanti or Aapnuvanti? Aapnavanti or Aapnuvanti? It's Sunoti, Sunvanti. What is the right form, Bhagini?
Na shuyate. Punaha vadantu.
Bhagini, what is it? Aapnuvanti or aapnanti?
Aapnuvanti.
Okay, so this is different from shunoti form. Shunoti shunvanti.
Kinchit beda bhavati, paranto apnoti, apnutaha, apnuvanti, apnushi, apnutaha, apnutha, apnomi, apnuvaha, apnumaha. Iti bhavati. Ekvaram punaha vadatu bhagini.
आप्नोति आप्नुतः आप्नुवन्ति आप्नोषि आप्नुतः आप्नुतः आप्नोमि आप्नुवः आप्नुमः
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा
नास्ति भगिनि
अस्तु
भगिनि एकप्रश्नमस्ति So, shaknoti also will be similar. Shaknoti, shaknutaha, shaknumanti.
Okay. Idani. Sudadi kanaha. Priya Bhagini, bhavati patatu.
Dudadi. षष्टः गणः दुद् इत्याद्यः धातवः द्वादि द्वादि इत्यादीनि क्रियापदानि विकरणप्रत्ययः च टु अ उदाहरणं मिल् मिलति लिख् लिखति क्षिप् क्षिपति कृष् कृषति वाट् इस् दिस् मीन् भगिनि
अस्तु अग्रिमगणः अस्ति तुदादिगणः तुदति इत्यादीनि क्रियापदानि तत्र विकर्णप्रत्ययः अस्ति अस्तु उदाहरणानि सन्ति मिलति लिखति क्षिपति कृषति अस्तु
जस्ट् लैक् भुवादि दिस् आल्सो हास् विकर्णप्रत्ययः वाट् इस् दट् मीनिङ्ग् आफ् शियर् अरोमा टु
वी नाट् लुकिङ्ग् एट् दट् रैट् नो बट् दट् इस् अ फार्मल् वे आफ् सेयिङ्ग् द विकर्णप्रत्यय इस् अ
ओ सो एन् वाट् How do you identify the difference, Bhagini, between
Bhuadi and... By looking at it, you can't differentiate.
Okay.
First, let's practice the forms and then we'll do that. Asu.
Okay.
Asu. Asu. Milati. राधा भगिनी भवती वदतु
मिलति मिलतः मिलन्ति मिलसि मिलतः मिलत मिलामि मिलावः मिलामः इस् इट् करेक्ट् भगिनि सम्यक् वा
सम्यक् भगिनि अस्तु अनन्तरं
It takes the same form as Bhuvadi Ganaha va Bhagini? Okay.
Asu, Gopal Mohdya, Bhavan, Likhati iti karoto.
Likhati. Likhati. Likhitaha, Likhanti. लिखसि लिखितः लिखित लिखामि लिखावः लिखामः
वै इस् इट् लिखितः इन्स्टेड् आफ् लिखतः भगिनि लिखितः लिखतः
महोदय पुनः एकवारं वदतु
लिखितः वा
न भवादिगणः
भवादिगणः लिखति लिखतः लिखन्ति लिखसि लिखतः लिखथ लिखामि लिखावः लिखावः
अस्तु प्रिया भगिनी क्षिपति
क्षिपति भगिनि
क्षिपति
क्षिपति क्षिपति क्षिपतः क्षिपन्ति क्षिपसि क्षिपथः क्षिपत क्षिपामि क्षिपावः क्षिपामः
समीचीनं कृषति इति राधा भगिनी
कृषति कृषतः कृषन्ति कृषसि कृषतः कृषत कृषामि कृषावः कृषामः
समीचीनम् अस्तु इदानीम् अहं वदामि तुदति इति गोपाल् महोदय
तुदति तुदतः तुदन्ति तुदसि तुदथः तुदथ तुदामि तुदावः तुदामः
समीचीनं क्रिया भगिनी नुदति
नुदति नुदथः नुदन्ति नुदसि नुदथः नुदथ नुदामि नुदावः नुदामः
समीचीनं दिशति
उदति इत्युक्ते अर्थं किं भगिनि
तुदति नाम
टु हर्ट् भगिनि
आम्
टु हर्ट्
आम्
नुदति टु पुश्
न इन्स्पायर्
हो नुदति इस् टु इन्स्पायर् ओके
अस्तु दिशति
वाट्स् द वर्ड् भगिनि
दिशति
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 दिशति दिशति दिशतः दिशन्ति दिशसि दिशतः दिशत दिशामि दिशावः दिशामः
समीचीनम् क्षिपति
कृतवान् दिशति सिमिलर् टु ददति
आम् आम् प्रिया भगिनी त्वचति
वचति वचति वचतः त्वचन्ति त्वचति त्वचतः त्वचतः त्वचामि त्वचाभः त्वचामः
समीचीनं त्रिपति गोपाल् महोदय
नृपति नृपतः नृपन्ति तृपति तृपतः तृपन्ति तृपसि तृपथः तृपथ तृपामि तृपावः तृपामः
तृपति राधा भगिनी
तृपति तृपतः तृपन्ति तृपसि तृपतः तृपत तुपामि तुपावः तुपामः
समीचीनम् अस्तु ऐ थिङ्क् दिस् इस् एनफ् फार् तुदति बिकास् तुदादिगणः बिकास् सेम् फार्म्स् एस् भवति सो ऐ थिङ्क् एव्रिवन् इस् क्वैट् कम्फर्टबल् एकनिमिषं वयं तत्र कथं हौ टु डिफ्रेन्शियेट् भवादिगणः एण्ड् तुदादिगणः किञ्चित् कठिनं भवति तदर्थं वयं किञ्चित् एव पठामः अस्तु अस्तु दृश्यते वा अस्तु गोपाल् महोदय भवान् आरम्भं पठतु
धातु प्रथमे गणे अस्ति वा षष्ठे गणे अस्ति वा? प्रथमे गणे विकरणप्रत्यय अ इति भागः अवशिष्यते. षष्ठे गणः अपि सा एव गतिः. तर्हि यत्र धातु तिङ्प्रत्यय इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति?
अत्र स्थगयतु, अत्र स्थगयतु महोदय. अत्र किं भवान् अवगतवान्?
प्रथमगणे विकरणप्रत्यय आ भवति, षष्ठे गणे अपि सा भवति. तर्हि देन् हौ डु वि डिफरेन्शियेट् इस् थिङ्ग् लैक्, तर्हि यत्र धातु तिङ् प्रत्यय इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति? हौ डु वि डिफरेन्शियेट् विच् गण इट् इस्?
समीचीनं. इदानीं प्रिया भगिनी भवती उत्तरं पठतु अत्र.
उत्तरं दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते यत् धात्वज्ञो गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति ज्ञायते. अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति.
अत्र किम् अवगतवती?
दर्शनेन न ज्ञातुं शक्नुमः,
सर्वदा न ज्ञातुं शक्नुमः, परन्तु समटैम्स् वी केन् सी, समटैम्स् वी केन् नाट्. सो सर्वत्र न ज्ञायते.
ओके, जस्ट् बै लुकिङ्ग् यु केन् नाट् ऐडेण्टिफै, दट्स् वाट् दे आर् सेयिङ्ग्.
नाट् आल्वेस्.
नाट् आल्वेस्, ओके. So then when they say gunaha darshayate,
etadeva they now they are going to say what it is. Astu, so okay. Don't worry,
so
about
below
that.
Okay.
So agre gachema etat kimiti nyasyama. Astu,
okay.
Radha Bhagini bhavati atra patatu vyakarane.
भगिनी तत्र धातवङ्गे गुण दृश्यते तत्र प्रथमे गुणे अस्ति इति ज्ञायते. वाट् इस् द मीनिङ्ग् आफ् धातवङ्गे गुणः दृश्यते?
तत्र धातोः प्रथमभागे तत्र दृश्यते इति वदन्ति.
सर्वे अपि धातव अस्ति न?
न न, धात्वस् धातोः प्रथमभागे तत्र गुणः दृश्यते इति वदन्ति.
ओ हो, फार् ऐडेण्टिफिकेशन् प्रथमे भागे दृश्यते.
राधा भगिनी, केन् यु से ट्रान्स्लेट् इन् इङ्ग्लिश् भगिनी वाट् यु जस्ट् आस्ट्?
सो ऐ आस्ट् द सेकेण्ड् सेण्टेन्स् इस् यत्र धातवङ्गे गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति ज्ञायते. सो एव्रिथिङ्ग् इस् धातवः इस् मै क्वश्चन्. सो हौ डु वि डिफ्रेन्शियेट्? ऐ डोण्ट् अण्डर्स्टाण्ड्. सो शी सेड् नो नो, यु हेव् टु सी द प्रथमे पार्ट् रैट् भगिनि. इफ् यु लुक् एट् द प्रथमे पार्ट् यु विल् बि एबल् टु एक्सामिन् अण्ड् यु विल् गेट् टु नो इस् वाट् says, but unless we see examples we won't understand again.
Okay, thank you.
Vyakarane ekah siddhantah asti. अस्ति गुणः नाम्ना सिद्धान्ते स्वरस्य परिवर्तनं भवति विकृतरूपस्य गुणसंज्ञा भवति अस्मिन् कोष्टके पश्यतु व्याकरणे एकः सिद्धान्तः अस्ति गुणाः नाम्ना इन् ग्रामर् देर् इस् वन् प्रिन्सिपल् काल् गुणास् इन् दट् प्रिन्सिपल् स्वरा परिवर्तनं भवति द स्वरा विल् चेञ्ज् विकृतरूपस्य गुण संज्ञा भवति विकृतरूप इस् विकृतरूप गुणा विल् बि नौन् फार्म् अस्मिन् कोष्टके इन् द इन् गिवन् कालम्स् यु केन् सी द स्वरा इ गुणा विल् बि ए उ will guna will be o r and r will become r
asto etat nutana hasti aham janami idanim tatra te udaharanani dadanti asto Gopal mahatya banatra patatu
dhatutah kriya padam निर्मातुं भवादिगणे गुणः भवति तुदादिगणे गुणः न भवति गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति
अत्र किं वदन्ति
सिङ्ग् धातुतः क्रियापदं निर्मातुं भुवादिगणे गुणः भवति इन् भुवादिगणः वैल् क्रियेटिङ्ग् दि क्रियापदं देर् बि ए गुण इन् सैड् तुदादिगणे गुणः न भवति इन् तुदादिगण देर् इस् नो गुण गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति सो गुण भवति वाट् डस् द मीनिङ्ग् आफ् गुण भव इफ् यु से देर् इस् ए गुण देन् इन्सैड् द धातु देर् इस् ए स्वरं द न्यू स्वरं विल् कम्
अस्तु इदानीं तत्ते उदाहरणं ददन्ति Priya Bhagini, Bhavati Patatu.
What does it mean that there is a guna inside, Bhagini? What is the...
Satra Dhatoha Madhye Dutanaha Swaraha Bhavati.
Like Gana plus Isha is Ganesha. Is Guna Sandhi. That E is becoming A. Yeah?
What is the meaning of Guna, Bhagini? Maybe I don't understand that as well.
That guna is that guna sandhi rule, Mataji.
I don't know that.
Priya Bhagini, it is a place where when those vowel sounds come, there is a change.
Oh, I see. Okay.
Like that example that Mahodaya gave, no?
Okay.
Gana plus Isha is Ganesha.
Ganesha.
How that change happens. So okay. The change is you have to look for E and E. When E and E is there, it becomes a A. When U and U is there, it becomes a O. When R and R is there, it becomes a R. That change will happen in only one type of... this thing is what they are saying. That's how you identify and differentiate.
It will only come in Dvadikanaha.
Okay. Okay, okay, thank you. Okay. So, Budh Dhatau Antar Bhutaha Swaraha
अत्र स्थगयतु, अत्र किं वदन्ति इति अवगच्छति वा? तत्र अन्तर्भूतनाम मध्ये, तत्र भू भकारः योगः उकारः अस्ति किल, तदेव अत्र वदन्ति. अस्तु,
दट्
ऊ इस् द ऊ दे आर् टाकिङ्ग् अबौट् रैट् हियर्.
ओके
ओके, सो अत्र कोष्टके किम् उक्तवन्तः, एतत् भ्वादिगणस्य अस्ति चेत् ऊकारः ओकारः भवति किल.
भूवादिगणः उकारः वर्धितयर्.
सो अत्र एतदेव गुणः भवति चेत् एतदेव भवति. अस्तु, तत्र भ्वादिगणः भ्वादिगणे एव भवति, तुदादिगणे न भवति.
बुद्ध् बिकम्स् बोधयति नो भगिनी, प्रिया भगिनी.
ओके,
हौ इस् इट् बिकमिङ्ग् ओ? दट्स् वाट् दे आर् टाकिङ्ग् अबौट्. Because that okay. O of Bu, you identify the O of the Bu, that O okay. is becoming that Antarbhutaha Guna O.
Okay. Okay.
That's true. उकारस्य गुणः ओकारः इति उपरि स्थिते कोष्टके अस्माभिः दृष्टम्. एतदेव वयम् उक्तवन्तः, उकारः भुद् इति धातुः भोत् इति भवति. भुद् धातौ गुणः भवति, अतः भुद् इति भोत् इति अस्ति. लट्लकारे बोधति इति रूपम्, गुणः अस्ति, अतः भूत् धातुः प्रथमे गणे अस्ति, न तु षष्ठे. डु यु अण्डर्स्टाण्ड् दिस् भगिनि?
नाट् द लास्ट् पार्ट् भगिनि. सो फस्ट् वन् ऐ अण्डर्स्टुड् यु सेड् इन् बोत् इट् इस् उकारः, देन् दट् उकारः बिकम्स् ओकारः.
सो भगिनि, सो वन् इम्पार्टेण्ट् थिङ्ग्, इफ् दिस् हेपन्स् इट् विल् बि इन् भ्वादिगणः.
ओके
ओके, सो बुद् इति धातुः, we have an ukara, right? Now if this, we don't know if it is in going to be in tudadiganah or bhuadiganah. Okay, if it was in bhuadiganah, then that o according to this table will become o.
Okay
okay, so now you have bakarah yoga okarah, so bho, and then the dakarah, so bodh. Okay, so the bodh will become bodh. Now in lat lakara the roopam is bodhati.
Okay,
so we said bodh becomes bodh, so the roopam will become bodhati, right? So this must be in bhuadiganah, not tudadiganah, because the gunaha happened here.
Okay. So Bhagini, then we are looking at the Rupams first. We need to know the Rupams, and from the Rupams, we'll know which Ganaha it belongs to. So,
yeah, so if you have, backwards. So you have Bodh and Bodhati. So you're going to look at both, and then you will know.
Okay. Okay, Bhagini.
Now, if you look at Likhati, Lik iti. So let's follow the same thing. Okay, so we're trying out the gunaha to see if it matches the thing or not. So we have lik. So lakaraha yoga ikaraha, right? So if you have ikaraha, it will become ekaraha, right? So
okay,
il yoga e yoga ik, so lek iti bhavati, right? If there was gunaha, the lik will become lek. But what is lik dhatoho latlaka rupam kim?
Likati, likataha, likanti.
So gunaha asti va nasti va?
Nasti.
That is it. So we're basically comparing the latlakaraha rupam to the dhatu.
Okay.
Avagachati va?
Bhagini.
We'll do some more.
Bhagini, let me just summarize and see if I've understood it properly, yeah. Bhagini. So we have to look at the latlakara rupam of the dhatu. Okay, and in the latlakara rupam, we have to see if there is a change or not, if the guna is happening or not. Mm. And based on that, we decide which form it is, right? Okay.
So another example, shochati. We had shochati, right? So shochati, if we look at this, ish yogaha, sorry. What is the so shochati is latlakarupam shuch is the dhatu.
Who is becoming o? So parivartanam happened.
So parivartanam happened. So this is bodhiganaha.
Okay.
Same if you look at garjati, grij dhatu, right? So r becomes ar. So gar. So gr becomes gar. Jati. Asto.
Gar jati.
But if
okay.
But
wow.
If you,
beautiful.
But if you look at Tudadi Ganaha, however the dhatu is, the Vartamana Kalaha will have the same part. Like mil dhatuhu milati, lik dhatuhu likati, kship dhatu kshipati. I'm not saying Bhuadiganaha doesn't have Vyapanams that do that, but there are also some that don't follow. Like, see, Kadati, Kad Kadati, Pat Patati, we do have that. But if there is a change, then it is definitely in Bhuadiganaha.
Okay.
See, Hrya Dhatuhu, Hakaraha Yogaha Hrya, so that becomes Ar, so Hakaraha yoga a yoga ar so harati. Do you understand now, Bhagini?
Yes, Bhagini, I'm getting there. I understand better now. Yeah.
We'll review this one more time next week so that
yeah.
It will be easy. Astu.
Okay. Yeah.
Astu.
Thank you, Radha Bhagini and Mahodaya too. It helps.
Astu. Atra prashna santi va? Atava agrima
kadam. Thank you, Kadambari Bhagini. She's explaining it so well. Now, some of these things I learnt it by heart before, but never understood what it is. She's making it so clear. Thank you so much, Bhagini.
Dhanyavada,
Bhagini. Thank you to you too. Like it's helpful to hear from you also, Radha Bhagini, and Mahodaya too. Thank you.
Dhanyavada. So let's go to the next kanaha. Rudhadihi. Astu. Rudhadihi kanaha. Saptamah kanaha. Rudh ityadayaha dhatavaha. Runaddi. Ityadini kriyapadani udaharanani chinati trinati dinati bunakti bunkte yunakti. So atar vikarna pratyaha asti nakaraha.
Okay.
So ek nimsha.
Nakaram.
Asto.
And
runati iti rupani jananti va? Asto. Na iti aham chintayami. अस्तु राधा भगिनी भवती जानाति वा
किं भगिनि एकवारं पुनः वदतु भगिनि
रुणति इत्यस्य रूपाणि
रुणति रुणति ऋणितः रुणन्ति नाट् श्योर् भगिनि
एकनिमिषः
ऋणति ऋणितः ऋणन्ति ऋणति ऋणितः ऋणित ऐ थिङ्क्
रुधादिगणः दिस् इस् विच् नम्बर् भगिनि
सेवेन्थ् महोदय
सप्तमः
सेवेन् सप्तमः रुधादि
ओ रुन्धः रुन्धन्ति ओ द न शुड् बी देर् रैट् ओके ओके दट्स् द क्लू द मेन् क्लू वि फोगाट्
आल्सो
रुणादि इट्स् रुन्धः रुन्धन्ति
आल्सो
रुन्धः रुन्ध
एकनिमिषं महोदय फर् द्विवचनम् इट् विल् बी द सेम् फर् रुणति रुन्धः रुन्धन्ति रुणत्सि रुन्धा एव सो ऐ गेस् विल् बि अगेन् चालेञ्ज् एकनिमिषः ऐ थिङ्क् देर् इस् अनदर् फार्म् ऐ थिङ्क् देर् इस् टु फार्म्स् एकनिमिषः इट् इस् ऐदर् देस् और् रुन् for both of us and then run atava him एकवारं सर्वे पठन्तु अस्तु दादा भगिनी भवती पठतु
रुणधि रुन्धः रुन्दन्ति रुणसि रुन्धः रुन्द रुण रुणध्मि रुन्ध्वः रुन्ध्मः
समीचीनम् अनन्तरं भिनति एकवारं प्रयत्नं कुर्वन्तु भिनति किं भवति
विच् इस् द वर्ड् भगिनि
भिनत्
भिनति it already has a na, so how do we do it? Binanti?
What do you mean, Bhagini? Here also there is a na.
नो भगिनी
अस्तु रुणति रुन्दः किल भिनति भिन्तः इति भवति अतः रुणधि रुन्धः इति भवति अत्र भिन्तः इति भवति भिन्दन्ति भिनति बिन्थः बिन्थ बिनद्मि बिन्द्वः बिन्द्मः
भगिनी केन् यु रैट् दिस् सो वि केन् द नेक्स्ट् वन् विल् रैट्
भिनति भिन्तः अथवा
Okay, the first one will be the same as the original thing.
Binanti. Binatsi. Bintaha. Bintha. Binami. Is that Runami or Runadmi?
Runadmi.
So that will be Binatmi.
Binadmi.
Binadvaha. Binadvaha. Maha.
एकनिमिषः भिन्न अथवा भिन्न 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 अस्तु अस्तु एकवारं पठन्तु राधा भगिनी
भगिनी हू हेज़् टु रीड्
सर्वे वदन्तु अस्तु गोपाल् महोदय भवान् प्रथमतया वदतु
भिनति भिन्तः भिन्दन्ति भिन्दन्ति भिनत्सि भिन्तः भिन्था भिनध्मि भिन्द्वः भिन्द्मः
समीचीनं प्रिया भगिनी पुनः एक भवती पठतु
भिनति भिनत्थः भिनन्ति भिन्दन्ति भिनत्सि भिन्तः भिन्था भिनध्मि भिन्द्वः भिन्द्मः
समीचीनं दादा भगिनी भवती पठतु
भिनति भिन्तः भिनन् भिन्दन्ति भिनत्सि भिन्तः बिन्ता बिनद्मि बिन्द्वः बिन्द्मः
भगिनि द्विवचनं हौ डु यु से भगिनि बिन्तः एनन् द सेकेण्ड् फार्म्
किं भगिनि
द्विवचनं भगिनि फार् मध्यमपुरुषः एण्ड् प्रथमपुरुषः
बिन्तः बिन्तः
भिन्तः भिन्तः
न भिन्तः 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 अत्र अल्पप्राणः भवति अत्र महाप्राणः भवति
भिन्तः भिन्तः
न भिन्तः
भिन्तः
भिन्तः भिन्तः
That sounds there, na, Bhagini?
So yeah, that's so this sentence. Will have more emphasis.
Okay. Hmm. Okay, Bhagini.
Ashto, Ashto, Yunakti. एतत् किञ्चित् रूपाणि भेदाः भवन्ति प्रोन्नति एतत् अहं न लिखामि कर्तुं प्रयत्नं कुर्वन्तु
अहं प्रयत्नं करोमि भगिनि शृणति शुन्तः शुनन्ति शुनसि शुन्तः शुन्त शुनद्मि शुनद्वः शुनद्मः
समीचीनं प्रिया भगिनी भवती वदतु
शुनद्धि शुनत्तः शुनतः शुनन्ति शुनत्सि शुनतः शुनथ शुनद्मि शुन्वः शुन्मः लास्ट् वन् सौण्ड्स् राङ्ग्
No. What did you say?
Shunadmi, Shundvaha, Shundmaha.
Samichinameva.
Okay.
Gopal Mohde, Bhavan Ekavaram Vadatu.
In this Rudadi Ganaha, what is the Vikarana Pratyaya and what are the rules beginning?
Na Vikarana.
Nakaram Bhavati.
Na.
Oh, Nakaram Vikarana. So this runadi, what is the this runadi, what is the dhatu? Rudu dhatu, va?
Run dhatu, no? Run?
Run dhatu hai, va?
रुण्डातु चेत् न कथं विकरणप्रत्यय भवति
रुण्डातुः तत्र नकारः अस्ति किल महोदय
दट् इस् सि भुवादिगणः विकरणप्रत्यय न नाट् वाट् इस् द धातु इस् एण्डिङ्ग् इन्
आं बट् रुणद्दि हेस् द नकारः
ओके भवन्ति भिन्नति भिनति अण 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 भूतार्विकरणप्रत्यय वा बट् देट् विकरणप्रत्यय चेत् देट् सि भुवा भू प्लस् आ प्लस् ति बिकम्स् भवति रुण् प्लस् ण प्लस् अद्दि न That Vikarana Pratyaya does not, what is the formation of the word?
Run Yogaha Na Yogahati.
Oh, Run Yogaha Na Yogahati Runadiva.
Aam Kila Mohandiya.
Okay, then there are lot of Sandhi rules, everything is going there then, okay. Then this is Bhin Yogaha Na Yogahati Va.
Aam.
Bhinati. क्षुणति क्षुणति क्षुणन्तः क्षुन्दन्ति क्षुणत्सि क्षुन्तः क्षुन्था क्षुणद्मि क्षुणद्वः क्षुणद्मः
अस्तु अनन्तरं
धातु इस् शुण्डेर् भगिनि
शुद्
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 तकारः तकारः अस्तु ह्युज् धातुः कुर्मः
शुद् मीन्स् टु बि हङ्ग्रि
रश् इति अहं चिन्तयामि
ओके
अस्तु
युद्ध युनति
इट् इस् युनक्ति
युज् टु जायिन् न टु युनैट्
आम्
Yoga yuj.
Yuj.
Yulakti.
Yulakti.
एकनिमिष अत्र एकवारम् एतत् पठन्तु. गोपाल् महोदय भवान् पठतु प्रथमतया.
युनक्ति युज् धातु रुधादिगणः सप्तमगणः. युनक्ति युङ्क्तः युञ्जति युञ्जन्ति. युनक्षी युङ्क्तः युङ्क्थ. युनज्मी युज्वः युज्मः.
समीचीनं. प्रिया भगिनी भवती एकवारं पठतु.
युनक्ति युङ्क्तः युज्जन्ति. युनक्षि युङ्क्तः युङ्क्तः. युनज्मि युञ्ज्वः युञ्ज्मः.
राधा भगिनि.
युनक्ति युज् युनक्ति युङ्क्तः युज्नन्ति. युनक्षी युङ्क्तः युङ्क्त. युनज्मि युज्वः युज्मः.
समीचीनं.
भगिनी, वाट् इस् द रीज़न् द युनक्ति युङ्क्तः भवति? टोटलि इस् चेञ्जिङ्ग् भगिनी.
आम्, एतत् किञ्चित् विशेषणरूपम् अस्ति.
युनक्ति युङ्क्तः यज्ञन्ति. युनक्षि युङ्क्तः. ओके भगिनि.
अस्तु. इति कर्तुं प्रयत्नं कुर्वन्तु. गोपाल् महोदय, भवान् कर्तुं शक्नोति वा?
कृणति कृणति क्षुणति वत् वा
वा
krunati it will be it is ti so it will be ta ta da da na krntah krunanti
krntanti
krundanti
krntanti
krntanti it will be krntah
krntah krntanti
krntanti krnatsi krntah krntha krnadmi
krnatmi
krnatmi krnatvah krnatmah
krntvah krntmah
krntmah krntvah krntmah
vayam आत्मनेपदे दातवः वयम् अग्रिम सप्ताहे कुर्मः अस्तु भीन वदतु महोदय अथवा इदानीमेव कुर्मः अस्तु इन्धे एकवारं पठन्तु
इन्धे इन्धाते इन्धते इन्से इन्दाथे इन्धद्वे इन्धे इन्द्वहे इन्द्महे
अस्तु प्रिया भगिनी भवती एकवारं पठतु
इन्दे इन्दाते इन्दथे इन्धे इन्थे इन्धाथे इन्दद्वे इन्दे इन्द इन्द्वहे इन्द्महे
राधा भगिनी भवती एकवारम्
इन्दे इन्दाते इन्दते इन्त् से इन्दाते इन्दद्वे इन्दे इन्द्वहे इन्द्महे
अस्तु विन्ते इति कुर्वन्तु
क्रेटे भगिनी
आम्
विन्ते विन्दाते विन्ताते
विन्दाते विन्दाते
ओ विन्ते विन्दाते विन्दते विन्तसे विन्दाते विन्दद्वे विन्दे विन्द्वहे विन्द्महे
अत्र एतत् मध्यमपुरुष बहुवचनं विन्द्वे
विन्दद्वे
विन्द्वे
विन्द्वे ओके
विन्द्वे इति भवति
विन्द्वे
आम् कष्टम् अनन्तरं हिन्ते क्रियापद्मी भवति करोति वा
किन्ते किन्दाते किन्दते किन्ते किन्दाथे किन्दद्वे किन्दे किन्दद् किन्द्वहे किन्द्महे
समीचीनम् अस्तु अस्तु अत्र स्थगयामः एतत् एकः प्रश्नः अस्ति what recommendations as students do you have to make class more fun like I know dhatugana is kind of hard so
I think you're doing awesome Bhagini
I think we just need to consciously do like a bit of punasmaranam that what is what and I think we're doing the forms and everything but it is yeah, this is the first time we are being introduced to all of this but it is clicking but I think for maybe 2-3 classes we'll get to know more all the patterns which are there we just need to click
just practice only Bhagini I think you're doing great something needs to change
yes Bhagini you are doing a good job it's we need more practice we have to be more sincere in what we do
like that first joining you said bhu plus a plus t like that if you can tell that for all the ganas you know that I think it will be good I know we can go read that but that's all Sanskrit reading and it's a bit difficult we have to take lot of effort to follow all of that so your Krishna Palakam or that book that you are that page that you are writing if you can just add a bit more context that will be more useful
Karomi also for homework I think we're doing a lot of forms but I think we need to get better at like conversing as in not just forms so we should be able to converse not just take like 20 minutes to think about the forms so what I'll do like every week I'll give like a topic and you just need to say like 3 or 4 sentences that's it about it and record it so that and send it in the group so that you will get practice astu
okay Bhagini
I'll give the topics or you can choose it your wish and okay, even if it's just what you did today aham adya aham bhojanam kritavati aham graha patam krita that's enough like so that we get better at conversing not just saying and showing off your thoughts astu
okay
astu
astu Bhagini good idea Bhagini
astu dhanyavadah adya vayam sagayamah astu
dhanyavadah Bhagini
dhanyavadah
dhanyavadah